कर्णप्रिय सागरे सलिलावगाहे आकाशवाण्याः सम्प्रसार्यमाणे मध्याह्नकाले संस्कृत साप्ताहिकीति नामाभिधेयके कार्यक्रमे भवतां समेषाम् अभिनन्दनम् नमस्करोम्यहम् कार्यक्रमस्य उद्घोषकः पुनीत त्रिपाठी। आयान्तु कार्यक्रमस्य शुभारम्भः सुभाषितानुभागेन निष्पादयामः। यस्तु गायति अस्माकं सहयोगिनी निधि तिवारी।
सुखार्थिनः कुतो विद्या, विद्यार्थिनः कुतो सुखम्। सुखार्थी वा त्यजेद् विद्याम्, विद्यार्थी वा त्यजेद् सुखम्।
कार्यक्रमस्य विषयवस्तुषु साम्प्रतं समयः समागतः प्रसंगानुभागस्य। सारल्येन वाद्य यंत्रैश्च सह गानं करोति सहयोगिनी निधि झा।
भारति मे भारतम्, भारति मे भारतम्, भूतले भारति मे भारतम्, भारतम् मानवा मानितम्, दानवा बाधितम्, निर्जराराधितम्, सज्जना साधितम्, पंडितैः पूजितम्, पक्षिभिः पूजितम्, भूतले भाति मे भारतम्, भारतम् भाति मे भारतम्, भाति मे भारतम्, भूतले भाति मे भारतम्, भारतम्।
सुरभारती समुपासकाः अयि श्रोतारः, परिवर्तनशील जगति प्रतिदिनं प्रचल्यमानानां वार्तां प्रति अद्यतनीय भावः अद्यत्वे समाजे अत्यपेक्षितो वर्तते। देश विदेशयोः वार्ताः संकलय्य प्रस्तुतास्ति कार्यक्रमस्य सहभागिनी द्रुतवाहिनी सुषमा कुमारी।
प्रधानमंत्री नरेन्द्र मोदी पोलैंड यूक्रेन उभाभ्याम देशाभ्याम यात्रायै पोलैंड देशे वारसा नगर्याम सम्प्राप्तवान्। निर्वाचन आयोगेन विधानसभीय निर्वाचनानां आलक्ष्य हरियाणा प्रदेशे प्रवेश परिणामानां घोषणायां अवरोधः स्थापितः। राष्ट्रपतिना द्रौपदी मुर्मू वयया दूरस्थ क्षेत्रेषु सामाजिक अन्तर्जालस्य विवर्धनम् आलक्ष्य साक्षात् प्रणालिकया वृत्त्यवसराणि सृजनकरणदिशि प्रशंसा व्याहृता। आन्ध्रप्रदेशे अच्युतपुरम विशिष्ट आर्थिक क्षेत्रे एकस्मिन् अभिकरणे संजाते विस्फोटे सप्त जनाः मृत्युमुपगताः, त्रिंशच्चाधिकाः व्रणिताः सूच्यन्ते।
अयि सुरभारती प्रणयिनः, सम्प्रति ज्ञान विज्ञान प्रभागेऽस्मिन् भवतां समेषां ज्ञान पिपासूनां श्रोतॄणां कृते अद्य अस्माभिः साकं ज्ञानवर्धनाय उपस्थितः अस्ति श्री अरविन्द तिवारी महाभागः। एते विदुषा सह साक्षात्कारदायित्वं निभालयति अस्मत् सहयोगी युवराज भट्टराई इत्येषः।
नमो नमः प्रिय श्रोतारः, अयमहं युवराज भट्टराई भवतां समेषां स्वागतं करोमि साप्ताहिक्याः विशिष्टे साक्षात्कार कार्यक्रमे। अद्य अस्माभिः साकमस्ति आधुनिक संस्कृतस्य प्रख्यातः महाकविः श्री अरविन्द तिवारीवर्यः। असौ महाकाव्यानां, गलज्जलिकानां, आधुनिक कवितानां, बालक कवितानां, कथोपन्यासानां, निबन्धानां च लेखने सविशेषं प्रसिद्ध्यति। आयान्तु अमुना एव तस्य साहित्यिक यात्रा विषये जानीमः। मान्य महोदय, स्वागतमस्ति अत्र भवतः।
नितरां प्रसीदामि, धन्यवादः भवते।
मान्य महोदय, भवता महाकाव्यं, गलज्जलिकाः, आधुनिक कविताः, बालकविताश्च संस्कृतेन विरच्यन्ते। एतासु विविधासु विधासु लेखनस्य भवतः पद्धतिः का वर्तते? किम् प्रत्येकमपि विधासु अत्र भवतः रचनात्मक प्रक्रिया पृथक् भूता भवति?
नैव श्रीमन् युवराज महोदय, वस्तुतः अहम् अन्तेवासी अस्मि श्रीमतां यशस्येषाणाम् आचार्य वासुदेव द्विवेदी शास्त्री महोदयानां, ये हि काश्यां सार्वभौम संस्कृत प्रचार संस्थानस्य संस्थापकाः आसन्। तेषां लेखनी सर्वास्वपि विधासु अजस्र प्रवाहेण प्रचलिता अस्ति। ते गीतं, काव्यं, सूक्तिं सर्वमपि रचयन्ति स्म। अतः तेषाम् अन्तेवासित्वेन अहम् सर्वत्र विहरामि, विचरामि।
एवं सत्यम तरी भवताम अपि सर्वत्र सर्वासु विधासु गतिः इति
आमाम्
तिवारी महोदय तरी भवान् खलु संस्कृत साहित्यकारः इति तु विदितमेव परं समाजे कथ्यते यत् संस्कृतं तु प्राचीनम् अस्ति आउटडेटेड इति कथ्यते किल प्राचीनं तर्हि भवान् कवित्वेन आधुनिक साहित्यरूपेण संस्कृतस्य स्थितिं कुत्र कीदृशीं च विलोकयति तद्विषये प्रतिपाद्यताम्
सत्यमः भवान् एतत्तु सर्वे जानन्ति यत् प्राचीनं संस्कृतम् इदानीं नवीनायते
एवं
सर्वत्र नवीनाः विषयाः आविष्क्रियमाणाः सन्ति
एवं
नवीनतायाः साम्राज्यमपि वर्तते
सत्यं
भवद्भिः एतत् दृष्टं यथा महाकविना कालिदासेन किमपि आरब्धमासीत् तत्रापि पुराणमित्येव न साधु सर्वम् इति तेषां वचनमस्ति तद्वत् इदानीं प्राचीनं संस्कृतं नवीनायमानमस्ति
एवम् अधुना कथितुं शक्यते नवीनमेव न साधु सर्वम्
आमाम् प्राचीनेन साकं नवीनं संस्कृतं सर्वथा उपयोगी वर्तते अतः अहं तु न कामपि बाधां मन्ये संस्कृतस्य विकासमार्गे
एवम् अस्तु कविवर भवान् खलु अन्तर्जालमाध्यमेषु अपि सक्रियो वर्तते अतः अहं पिपृच्छिसामि यत् किं सामाजिकसञ्जालमाध्यमानाम् उदयेन भवतः लेखनविधा दर्शकान् पाठकांश्च यावत् प्रापयितुं या पद्धतिः कापि पुरातना आसीत् सा परिवर्तिता अस्ति किं भवान् मनुते यत् प्रविधिना संस्कृतसाहित्यस्य लोकप्रियता प्रतिष्ठापने साहाय्यं विधीयते तद् उदाहरणत्वेन अत्र किमपि प्रतिपाद्यतां तावत्
अयं समीचीनः प्रश्नः भवता युवराज महोदयेन इदानीं पृष्टः वर्तते
एवम्
अस्माकं विगतसमये कोरोनायाः यः कालः समागतः आसीत्
एवं
तस्मिन् काले आभासिकपटलस्य साम्राज्यं समुद्भूतम्
एवम् एवं
यद्यपि कोरोना विषाणुः अस्माकं कृते हानिकरः आसीत् तथापि वर्चुअल द्वारेण तु अस्माकं संस्कृतज्ञानां कृते नवीनः उदयः सञ्जातः
एवं
वयम् अनभिज्ञाः सन्तः अपि वर्चुअल द्वारेण आभासिकपटल द्वारेण दूरस्थाः एकत्रीभवामः
एवम्
अहं तु मन्ये आभासिकपटल द्वारा संस्कृतस्य अयं यः कालः समायातः वर्तते स कालः तु दर्शनीयः वर्तते मन्यताम् कश्चिदस्माकं सुहृद् वर्तते अमेरिकायां कश्चित् आस्ट्रेलियायाम् एकस्मिन् आभासिक कविसम्मेलने सद्यः ते उपस्थाय काव्यपाठं कुर्वन्ति किं प्राचीन कविसम्मेलन पद्धत्या एतत् सम्भवम् आसीत् नैव आसीत् तत्र गमने आगमने महान् व्ययः महान् श्रमः
समययापनम्
किञ्च यदि पत्रिका पुस्तकमाध्यमेन प्रकाशनं क्रियते काव्यस्य तर्हि तत्र पत्रिका गच्छेत् पुस्तकं गच्छेत् महान् समयः व्यतीतो भवति स्म अद्य तु अन्तर्जालद्वारा सायं लिख्यते तत्कालमेव समीक्ष्यते संशोध्यते परिशील्यते वा अतः आभासिकपटलेन संस्कृतस्य नवीनयुगोदयः सञ्जातः अस्ति
एवम् एवं तर्हि अत्र पाठकानां हस्ते हस्ते एव पुस्तकमस्ति इति मन्यते
आमामाम्
अस्तु सत्यमः भवान् मान्यवर भवता बालेभ्यः अपि भृशं बालसाहित्यं विरचितमस्ति बालसाहित्यविरचनसन्दर्भे संस्कृतमवलम्ब्य संस्कृतभाषां साहित्यं किमपि अत्र अस्माभिः वक्तुं शक्यते तत्र कानि कानि सन्ति समाह्वानानि तद्विषये किमपि उच्यताम्
युवराज महोदय भवता अयमपि प्रश्नः अत्यन्तमेव समीचीनः पृष्टः वर्तते
एवं
जानन्ति अस्माकं संस्कृतज्ञः सर्वे हि यत् आचार्यः वासुदेव द्विवेदी शास्त्री महोदयः अस्माकं ये गुरवः ते एव बालसाहित्यस्य सर्वश्रेष्ठाः आद्याः रचनाकाराः सन्ति
आधुनिकेषु एवम् एवं
यद्यपि बालसाहित्यम् अस्माकं प्राचीनसाहित्ये अनुस्यूतमस्ति पृथक् किमपि नास्ति
किन्तु अतीव प्रसिद्धाः सन्ति जनजनेषु प्रसिद्धाः
अत्रापि किमपि अहं वक्तुम् इच्छामि तेपि मन्ये स्वतन्त्रतायाः अनन्तरं यदा बालसंस्कृतसम्मेलनम् आयोजितवन्तः तदानीं तेषाम् एका पुस्तिका प्रकाशिता जाता
एवं
मम पार्श्वे वर्तते तस्यां पुस्तिकायां ते लिखन्ति यत् साम्प्रतम् एते सुकवयः बालकवयः सन्ति येषां रचना सुप्रसिद्धाः सन्ति
एवं
तर्हि इयं रचना अयं रचनाकालः तु महान् तत्र पृष्ठे गच्छति ततोपि प्राचीनः रचनाकालः गुरुवर्याणां बालकवितावली बालगानम् बाल कथा माला बाल निबंधावली इति बहु किंचित बाल साहित्यम गुरुभिः रचितमस्ति। अहम् तु मन्ये जनाः वदन्ति यत् बाल साहित्य रचने आह्वानानि सन्ति, किन्तु अहम् न मन्ये।
एव तर्हि गुरुपुराणां ये यानि पुस्तकानि सन्ति तानि प्राप्तुम् अस्माकं श्रोतृजनैः किं कर्तव्यं, कुतश्चित् प्राप्तुं शक्नुवन्ति?
दौर्भाग्यमस्ति यतोहि तानि इदानीं मन्ये विलुप्तानि इव, तथापि उत्तरप्रदेश संस्कृत संस्थानद्वारा
एवं
गुरुवर्याणां सम्पूर्णं साहित्यं विभक्त विभज्य तत्र प्रकाशने वर्तते। भागद्वयं प्रकाशितमस्ति, प्रथमः एव भागः बालसाहित्य नामकः वर्तते, तत्र वर्तते तेषामेव बालकविता, निपतति जम्बुः टप टप, बालः खादति गप गप, गन्त्री गच्छति छुक् छुक्, बालः पश्यति टुक् टुक्।
ओहो, इयति सुन्दरी कविता। अस्तु, एवं तु कविवर भवद्भिः प्रोक्तम् अत्र बालसाहित्यस्य महात्म्यम्। पुराकालादेव अधुना यावदपि गुरुवराणां वासुदेव द्विवेदी वर्याणां स्मरणमत्र जातम्। संस्कृतस्य विकासाय सम्प्रति देशे प्रशासनेन अथवा प्राशासनिक संस्थाभिः अथवा वैयक्तिक दृशा अपि नैकैः जनैः किं किं विधीयमानमस्ति? यतोहि भवताम् उपस्थितिः बहुषु संस्थासु वर्तते, अन्यत्र चापि अनुष्ठानेषु, साहित्यिक सारस्वत अनुष्ठानेषु तत्र उपस्थितिः भवति इति कृत्वा अहं पृच्छामि।
महोदय, अयमपि प्रश्नः अत्यन्तमेव श्लाघ्यः वर्तते। संस्कृतस्य प्रचारकार्ये वयं सर्वेपि संलग्नाः पश्यामः
एवं
यत् संस्कृतस्य समयः तु समीचीनः वर्तते, किन्तु सर्वकारीयसंस्थानद्वारा यावत् कार्यं न क्रियमाणमस्ति तावत् कार्यं तु स्वतन्त्रजनैः क्रियमाणमस्ति। यथा वा अस्माकम् आचार्याः येषां नाम अस्माभिः गृहीतम् आचार्य वासुदेव द्विवेदी शास्त्री गुरुवर्याः आसन्, सार्वभौम संस्कृत प्रचार संस्थानद्वारा कृतम्, तेषां शिष्यरूपेण वयमपि इदानीं कुर्मः।
एवं
चातुर्वेद संस्कृत प्रचार संस्थानद्वारा अस्माकम् अनेके सुहृदः निरन्तरं संस्कृतस्य प्रचारकर्मणि संलग्नाः सन्ति। विश्वमञ्च ग्लोबल् संस्कृत फोरम् द्वारा राजेश मिश्रः सम्पूर्णमपि भारतम् एकीकुर्वाणः दृश्यमानः वर्तते। अनेनैव प्रकारेण संस्कृतभारती तु देशान्तरम् प्रति गता संस्था संस्कृतस्य प्रचारकर्मणि संलग्ना वर्तते। अधिकम् किं वक्तुम् शक्नुमः? अस्माकम् उत्तरप्रदेशस्य संस्कृतसंस्थानम् देशस्य प्रतिष्ठितं संस्थानं वर्तते। स्वस्तिवासनमपि अस्माकं संस्कृतस्य विकासार्थं निरन्तरं कार्यं करोति।
एवम्,
अतः अहं तु वच्मि सत्यमेव एतत् मम मनसि वर्तते यत्
बहु किमपि क्रियमाणमस्ति। अस्तु,
संस्कृतस्य उत्थानकालः अयं समागतः, स्वर्णिम् कालः अयम्।
आकाशवाणी अपि करोति?
आकाशवाणी तु सर्वाधिकं कार्यं करोति।
एवं
भवन्तः पश्यन्तु, यतोहि दूरस्थान् कथम् वयं सर्वेपि तत्र संस्कृतं बोधयितुं शक्ताः भवेम, तदर्थम् अस्माकम् आकाशवाणी एव प्रयतते
माध्यमः।
आमामाम्,
अस्तु,
अस्माकम् आचार्याः बलदेवानन्दसागर महोदयः इयम् आकाशवाणी इति ध्वनिना सर्वमपि सम्पादितं संस्कृतस्य कार्यम्।
अस्तु, भवान् खलु सम्पादकत्वेन अपि कार्यं करोति संस्कृतभाषायाः विकासार्थं, केवलं लेखनमेव नास्ति तत्र, सम्पादकत्वे तु खलु बहु किमपि दायित्वं भवति। तत्र भवता कापि पत्रिका प्रकाश्यते, तत्र तद्विषये अपि किमपि प्रतिपाद्यताम्, अमृतवाणी अमरवाणी किमपि?
आमामाम् महोदय, अस्माकं जीवनस्य लक्ष्यमेव संस्कृतस्य प्रचारः वर्तते।
एवम्,
अत एव महाकाव्यलेखनेन, गलज्जलिकालेखनेन, गीतलेखनेन, नाटिकालेखनेन, नाटकलेखनेन, उपन्यासलेखनेन सर्वत्र वयं संस्कृतस्य प्रचारकार्यमेव कुर्मः।
एवम् एवम्,
अनेनैव प्रकारेण अस्माकं कविपरम्परायाः संरक्षणार्थं काव्यामृतवर्षिणी पत्रिका अस्माभिः स्वयमेव एका संस्था अस्माभिः परिकल्पिता वर्तते, अमरवाणी कविपरिषत्
नामनी।
तस्यां पत्रिकायां भवतामपि अनेकाः कविताः प्रकाशिताः सन्ति।
एवम् एवम्,
इदानीं स्वातन्त्र्यरसायनम्, शारदायनम्,
एवं
किञ्च रघुनाथायनम् नाम्ना इयमेव पत्रिका प्रकाश्यमाना वर्तते। असैव सम्पादन कार्यं तु अतीव श्लाघ्यम्। भवन्तः पश्यन्तु, सद्यः एव 21वीं सदीके रचनाकार इति नाम्ना एकं सम्पादनं कृतं गुरुवर्येण आचार्येण राधावल्लभ त्रिपाठिना
एवं एवं
किंच प्रवीण पंड्या महोदयेन
एवं ते
श्लाघनीयं कार्यमस्ति
स्मरणीयं
कार्यम् अतः संपादकत्वं तु सर्वश्रेष्ठं
दायित्वमस्ति
दायित्वमस्ति
अस्तु मान्य अरविंद तिवारी वर्य भवता साकं संभाषणं ज्ञानवर्धकम् आसीत् अस्माभिः भवतः सारस्वत साधना विषये अभिज्ञानस्य अवसरो लब्ध प्रिय श्रोतारः अद्यतने कार्यक्रमे एतावता एव अलम् पुनः मेलिष्यामः नमो नमः
प्रियाः श्रोतारः संस्कृत जगति लब्ध प्रतिष्ठितः संस्कृत दिग्दर्शन नामाभिधेयकः अयं प्रभागः समेषां कृते नवीनान् विषयान् उत्थापयति सूचयति च अधुना के नवीनाः प्रसंगाः संस्कृत जगत सम्बद्धाः सन्ति प्रख्यापयति तान् अस्माकं सहयोगी पुरुषोत्तम शर्मा
संसद अधिनियमेन संस्थापितानां त्रयाणां राष्ट्रीय संस्कृत विश्वविद्यालयानां संयुक्त तत्वावधाने उत्कर्ष महोत्सवः समायोजितः गुरुशुक्रवासरयोः आयोजिते महोत्सवे राष्ट्रीय संवाद संगोष्ठी आयोजिता अस्यां संगोष्ठ्यां विकसित भारत संकल्प साधकं संस्कृतम् इति विषये चर्चां समेत्य सांस्कृतिक कार्यक्रमाः समायोजिताः मंगलवासरे कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये एका विचारगोष्ठी समायोजिता अस्यां विचारगोष्ठ्यां संस्कृतस्य आधुनिक परिप्रेक्ष्ये प्रासंगिकता इति विषये विद्वद्भिः सम्मर्शो विहितः
प्रियाः बालाः साधनया साध्यते अयम् बालवल्लरी प्रभागः तनया साधनया सह बालानां कृते आगच्छन्तु शृण्मः एनम् बालवल्लरी प्रभागम्
बालाः अद्य अहम् श्रीकृष्णस्य एकम् रोचकम् प्रसंगम् श्रावयामि यः संस्कृत चमत्कारेण अलंकृतः कदाचित् श्रीकृष्णः सत्यभामायाः अन्तर्गृहद्वारे शब्दम् कृतवान् सत्यभामा अपृच्छत् कः द्वारे शब्दापयति कृष्णः अवदत् अहम् माधवः अस्य अन्यः अर्थः भवति वसन्तः सत्यभामा वदति तर्हि वसन्तर्तौ आगच्छतु कृष्णः वदति अहम् चक्री सुदर्शनम् चक्रम् अस्ति अस्यैति सत्यभामा अवदत् कुलालस्य समीपे गच्छतु यतोहि तस्य निकटे चक्रम् भवति यस्य उपयोगः घटस्य निर्माणे भवति तदा कृष्णः उक्तवान् अहम् धरणीधरः सत्यभामा भूभारम् वहन्तम् शेषम् स्मरति सा वदति आदिशेषम् प्रति गच्छतु कृष्णः अवदत् भो अहम् घोर अहिमर्दनः सर्पस्य मर्दनकर्ता काली मर्दन इत्युक्ते सत्यभामा वदति अहो गरुड तर्हि नवसि गच्छ इदानीम् कृष्णः वदति नैव भो अहम् हरिः इदानीम् कपाटम् उद्घाटय सत्यभामा वदति नैव नैव भोः हरिः अर्थात् कपिः गृहम् कथम् प्रविशति गच्छतु उद्यानम् एवम् सत्यभामायाः जयः भवति सत्यभामया यः जितः कृष्णः सः अस्मान् सर्वान् अपि रक्षतु इति कामनया पुनर्मिलामः
श्रोतारः भाषायुतस्य कौशलस्य वर्धनाय साम्प्रतम् प्रकटितो विद्यते एक भारत श्रेष्ठ भारत इत्यभिनामधेयकः विभागः अयम् प्रभागः प्रस्तूयते कृष्णप्रसादोपाध्यायेन
मनोयोगेन पठतु भवतः जीवनयात्रा सुकरा भविष्यति संस्कृत भाषाया कन्नड भाषायाम् अस्ति चेन्नगी औदी निम्मा जीवनायापना सुलभा बागुत्तदे तेलुगु भाषायाम् बागा चदवंडि मी जीवित प्रयाणम् सुलभम् अवतुंडि
सुरभारती समुपासकः श्रोतारः कार्यक्रमः इदानीम् समाप्यते आगामी रविवासरे अस्मिन्नेव काले पुनर्मेलिष्यामः परञ्च ततः पूर्वम् भवन्तः स्वीय प्रतिक्रियाः nhdsanskrit@gmail.com इत्यत्र सम्प्रेष्य अस्मान् अनुगृह्णन्ति इति कामये अस्तु चलामि तावत् नमो नमः जयतु संस्कृतम् जयतु भारतम्